सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। ॐ गुरुभ्यो नमः।
धन्यवादः भगिनी, सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्माकं वर्गे। इदानीं तत्र गतवर्गे वयं तत्र अव्ययानि इति विषये बहु किमपि चर्चितवन्तः। इदानीं अग्रे अस्ति सप्तविभक्तयः इति, तत्र 44th अध्यायः, तत्र दशमस्त्वमसि इति अत्र सम्भाषणम् अपि अस्ति, तदनन्तरम् अभ्यासः अपि अस्ति, एतत् अद्य कुर्मः। अस्तु, मधुसूदन महोदय नमस्कारः।
नमस्कारः महोदय।
नमस्कारः महोदय। अस्तु, तर्हि तत्र पेज् 192 मध्ये इदानीं तत्र एतद् कथं कुर्मः इत्युक्ते, तत्र प्रायशः पञ्चवाक्यानि तत्र खण्डशः तत्र सम्भाषणं खण्डं खण्डं कृत्वा पठामः, तदनन्तरं नो चेत् एकः अथवा एका एव सर्वं पठितव्यं भवति। अतः तत्र आरम्भे किं कुर्मः, तत्र लक्ष्मी भगिनी नमस्कारः, वेदा भगिनी, शोभा भगिनी, तत्र आरम्भे तत्र शिष्यः गुरुः इति तत्र ततः आरभ्य तत्र तृतीयपर्यन्तं पठन्ति वा?
तृतीयपर्यन्तं प्रथमं दृश्यं सप्त विभक्तयः उच्चैः पठत। कस्यचित् गुरोः आश्रमः। गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति। दश शिष्याः प्रविशन्ति। शिष्याः, आचार्य नमो नमः।
गुरुः नेत्रे उन्मील्य, प्रियशिष्याः सर्वे आगताः किम्?
आं गुरो, वयं सर्वे अपि आगताः।
समीचीनं, शिष्याः अद्य अनध्ययनम् अस्ति, भवतां पाठः नास्ति।
सन्तोषेण, सत्यं वा?
आम्, परन्तु अन्यदेकं कार्यं सूचयामि।
किं तत् गुरो?
वदामि, सावधानं शृण्वन्तु। पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति, भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायंकाले प्रत्यागच्छन्तु।
तत्र तृतीयः इति अस्ति, तदपि एकवारं पठतु भगिनी।
सन्तोषेण, अहो भाग्यं, महान् सन्तोषः, वयं सर्वे इदानीमेव गच्छामः।
धन्यवादः, समीचीनम्। अस्तु, अग्रे नरेश महोदय, ललिता भगिनी अग्रे पठन्ति वा? तत्र अन्तिमपर्यन्तम्।
अस्तु,
सर्वे
गच्छामः, सज्जाः भवन्ति,
परन्तु बहु जागरूकतया गन्तव्यम्, यतः अहं भवतां बुद्धिमत्तां जानामि।
वयं बहु जागरूकाः भवामः गुरो।
भवतु, सर्वे मिलित्वा एव गच्छन्तु।
तथैव अस्तु गुरो।
स्वागतं, तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति, अतः एवं करोमि। सर्वे पङ्क्तिशः तिष्ठन्तु। शिष्याः तिष्ठन्ति, गुरुः गणयति। एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव, दश। पश्यन्तु, भवन्तः दशजनाः सन्ति। मध्ये मध्ये परिशीलयन्तु, सर्वे आगताः वा, कोऽपि च्युतः वा इति।
अवश्यं परिशीलयामः गुरो, वयं गच्छामः।
शुभं भवतु। गुरुः गच्छति, शिष्याः सन्तोषेण नृत्यन्तः अन्यस्यां दिशि गच्छन्ति.
हा इति समीचीनं, धन्यवादः. अस्तु अग्रे उषा भगिनी अपि मधुसूदन महोदय तत्र पठन्ति वा तत्र?
आम् महोदय.
हा तत्र चतुर्थः इति पर्यन्तं.
प्रथमः, भोः सर्वे शीघ्रम् आगच्छन्तु, नो चेत् विलम्बः भवति.
आगतः भोः, आगताः.
वयं सर्वेपि स्मः किल?
स्मः. कः संशयः?
परन्तु मित्राणि, वयम् इदानीमेव एकां नदीं तीर्त्वा अग्रे आगतवन्तः, तत्र सर्वेपि नदीं तीर्णवन्तः वा इति मम संशयः.
ममापि सः एवं संशयः.
अतः एव गुरु उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति.
अस्तु समीचीनं, धन्यवादः. अस्तु अग्रे लक्ष्मी भगिनी अपि, गीताञ्जलि भगिनी नमस्कारः. पेज् 193 मध्ये, पेज् 193 मध्ये स्मः.
एकनिमिषं न शक्नोमि.
अस्तु अस्तु भगिनि, चिन्ता मास्तु, चिन्ता मास्तु भगिनि. अस्तु शुभदा भगिनी, लक्ष्मी भगिनी पठन्ति वा अग्रे तत्र चतुर्थः प्रथमः इति तत्र अग्रिमे पुटे तत्र पथिकः पर्यन्तं.
चतुर्थः इति चतुर्थः पठनीयं वा?
पुनः एकवारं पठन्तु.
अस्तु महोदय. चतुर्थः, अतः एव गुरुः उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति.
सत्यं, दशजनाः अपि स्मः वा इति इदानीमेव परिशीलयामः.
षष्ठः, मित्राणि भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु, अहं गणयामि. सर्वे तिष्ठन्ति, इदानीं गणयामि. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव.
सत्यं खलु, दशमः कुत्र गतः?
भोः, भवान् गणनां सम्यक् न जानाति. आगच्छतु, अहं गणयामि. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव. सत्यमेव खलु, नवजनाः एव सन्ति.
तर्हि दशमः कः, सः कुत्र गतः?
अत्र एव स्यात्, एतेषु एव स्यात्, एतेषु दशमः कः? दशमः कः?
भोः, कः कोलाहलः? का समस्या भवताम्?
हा इति समीचीनम्. अस्तु अग्रे तत्र, अस्तु तत्र गीताञ्जलि भगिनी, अस्तु सा न प्रायशः पठति इदानीम्. अस्तु
अतः अहं शक्नोमि अधुना.
अस्तु तर्हि तत्र, अस्तु तर्हि तत्र भवती पथिकः भवतु इदानीं. तत्र पञ्चमः इति, तत्र पञ्चमः लक्ष्मी भगिनी पञ्चमः इति करोति वा इदानीं? लक्ष्मी भगिनी भवती पञ्चमः, गीताञ्जलि भगिनी पथिकः, शुभदा भगिनी तत्र अनन्तरं, तत्र तस्य अनन्तरम् अन्ते निरूपकः यः यत् तत्र लिखितमस्ति, किन्तु इदानीं मास्तु, अग्रे पुनः एकवारं कथं पठित्वा तद् अन्ते पठामः भगिनि, तदा भवती एव पठतु.
अस्तु महोदय.
अस्तु इदानीं लक्ष्मी भगिनी
पञ्चमः. भोः गुरोः आदेशानुसारं वयं दशजनाः रथोत्सवार्थं प्रस्थिताः. इदानीं पश्यामः, नवजनाः एव स्मः. हा हन्त.
पथिकः स्वागतं, कथमेवं वदति एषः? मनसा एव सर्वान् गणयति प्रकाशः, भोः सर्वे सन्ति खलु?
नाहि नाहि, पश्यतु अहमेव गणयित्वा दर्शयामि. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव. पश्यतु नवजनाः एव स्मः. दशमः कुत्र गतः?
मित्र, भवान् एव दशमः, यः दशमस्य अन्वेषणं करोति. सर्वे निष्कम्पाः तिष्ठन्ति. निरूपकः नेपथ्ये वदति.
हा इति इदानीं तत्र अन्तिमपरिच्छेदः यः अस्ति, इदानीं तस्य पठनं मास्तु. तत्र सम्भाषणं पुनः एकवारं सर्वं पठामः, तदनन्तरम् अन्तिमपरिच्छेदस्य परिशीलनं कुर्मः. अस्तु तर्हि तत्र इदानीं पुनः आरम्भतया पश्यामः किं किम् अस्ति इति. अस्तु तर्हि तत्र नरेशमहोदय आरम्भं करोति वा? कस्यचित् गुरोः आश्रमः इति ततः.
कस्यचित् गुरोः आश्रमः. गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति. दश शिष्याः प्रविशन्ति.
अत्र किं किम् अस्ति? कस्यचित् गुरोः आश्रमः.
कस्यचित् गुरोः आश्रमः, गुरोः षष्टिविभक्ति आश्रमः.
तत्र कस्यचित् इति किमर्थं? तत्र
कस्मिन् स्थाने?
हा तत्र कश्चन गुरुः, हा कश्चन गुरुः अथवा कश्चित् गुरुः
तस्य
आश्रमः. अतः कस्य योगः चित् कस्यचित् गुरोः आश्रमः. अस्तु अग्रे.
गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति. उन्नतस्थाने सप्तमी विभक्ति, उपविश्य लेबान्तपदं, ध्यानमग्नः अस्ति. सो गुरुः ध्यानमग्नः विशेषं विशेष्यम्.
समीचीनं महोदय. तत्र ध्यानमग्नः, ध्याने मग्नं मग्नः अस्ति, ध्यानं करोति, ध्याने एव मग्नः अस्ति, अतः ध्यानमग्नः. तत्र लीना इति अपि दृष्टवन्तः खलु, चिन्तालीना अथवा चिन्तामग्नः, तादृश ध्यानमग्नः गुरुः तत्र उन्नतस्थाने सः उपविश्य अस्ति. इदानीं किं भवति?
दश शिष्याः प्रविशन्ति.
हा शिष्याः, दशशिष्याः प्रविशन्ति. अग्रे.
शिष्याः, आचार्य नमो नमः. नमस्कृतवान्.
नमस्कुर्वन्ति, नमस्कृतवन्तः.
गुरुः नेत्र उन्मील्य नेत्रे उन्मीलनं करोति.
तत्र नेत्रे इति वचनं किं? नेत्रे इति
द्विवचनं.
द्विवचनं उन्मील्य लेबन्तं, तत्र किम् अव्ययमस्ति, अतः तत्र किं वचनभेदः, लिङ्गभेदः किमपि नास्ति तत्र. तत्र नेत्रे इति विभक्ति का?
नेत्रे प्रथमविभक्ति.
उन्मील्य इति अस्ति खलु, तत्र उन्मील्य इति क्रियासूचकं खलु. हा द्वितीयविभक्ति कर्मपदं. किम् उन्मील्य? गुरुः उन्मील्य वदति. किम् उन्मील्य वदति? नेत्रे उन्मील्य वदति.
प्रियशिष्याः सम्बोधनम् अस्ति. प्रियशिष्याः सर्वे आगताः किम्? पृच्छति सर्वे आगतः,
सर्वे अत्र सन्ति वा इति सः पृच्छति. समीचीनं महोदय.
शिष्याः, आं गुरो, वयं सर्वे अपि आगताः.
तत्र वयं सर्वे अत्र स्मः, तत्र कोऽपि अन्यत्र नास्ति, सर्वे शिष्याः वयम् अत्र एव स्मः इति. अग्रे.
समीचीनं, शिष्याः गुरुः वदति समीचीनं शिष्याः सम्बोधनं करोति अद्य अनध्ययनम् अस्ति पाठं नास्ति अद्य
अनध्ययनम् अध्ययनं नास्ति अनध्ययनम् अस्ति अनध्ययनम् अस्ति भवतां पाठः
नास्ति
भवताम् इति विभक्ति का
भवतां षष्ठी विभक्ति बहुवचनं
बहुवचनं हा समीचीनं महोदय अस्तु अग्रे
प्रथमः सन्तोषेण सः सन्तोषः भवति
सन्तुष्टः भवति
सत्यं वा
इति सः तत्र आश्चर्यः अपि सन्तोषः भवति सत्यं वा अद्य अध्ययनं नास्ति वा इति सः पृच्छति समीचीनं महोदय धन्यवादः हा अस्तु समीचीनम् अस्तु अग्रे वेदा भगिनी अग्रे पठति वा नमस्कारः भगिनि
महोदय अद्य केवलं शृणोमि महोदय किञ्चित् व्यस्ता अस्मि
परन्तु अन्यत् एकं कार्यं सूचयामि गुरु वदति अद्य अनध्ययनम् अस्ति परन्तु अन्यत् एकं कार्यम् अहं सूचयामि
तत्र किमपि कार्यं नास्ति इति न किन्तु कार्यम् अहं सूचयामि
द्वितीयः किं तत् गुरु किं कार्यमस्ति गुरुः प्रश्नं पृच्छति गुरु वदति वदामि सावधानं शृण्वन्तु पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति वदामि अहं वदामि सावधानं शृण्वन्तु सर्वे शिष्याः शृण्वन्तु पार्श्व शृण्वन्तु इति लोट्लकाररूपं बहुवचने
बहुवचने समीचीनं
सावधानं कर्मपदं वा सावधानं
हा तत्र शृण्वन्तु तत्र क्रियापदस्य विशेषणम् इति सावधानम् इति
सावधानं शृण्वन्तु पार्श्वस्थे ग्रामे अत्र ग्रामे सप्तमी विभक्ति पार्श्वस्थे ग्रामे विशेषणविशेषं वा तत्र
सत्यं तत्र पार्श्वस्थे इत्युक्ते किं
पार्श्वस्थे क्लोस् बै
तत्र कोष्टकस्थे कोष्टकस्थानां पदानाम् उपयोगं कृत्वा इति अस्ति खलु कोष्टके स्थितम् अस्ति इति कृत्वा तत्र पार्श्वे स्थितं स्थितः ग्रामः
पार्श्वस्थः
पार्श्वस्थः ग्रामः तस्य सप्तमी पार्श्वस्थे ग्रामे
ग्रामे अद्य रथोत्सवः प्रचलति रथ उत्सवः
रथस्य उत्सवः
रथोत्सवः प्रचलति भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु सो भवन्तः सर्वे भवान् भवन्तः एकवचनं प्रथमा विभक्ति बहुवचनं भवन्तः सर्वे तत्र गत्वा पार्श्वस्थं ग्रामं गत्वा
रथोत्सवं
रथोत्सवं रथ उत्सवं दृष्ट्वा
सायङ्काले विभक्तिका तत्र
रथ उत्सवं दृष्ट्वा कर्मपदं
कर्मपदं रथोत्सवः इदानीं प्रचलति रथोत्सवं दृष्ट्वा
दृष्ट्वा दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु प्रति आगच्छन्तु इति
पुनः अत्र एव आगच्छन्तु
पुनः एव आगच्छन्तु सायङ्काले सप्तमी
विभक्ति भवति समीचीनं भगिनि अग्रे
तृतीयः सन्तोषेण अहो भाग्यं महान् सन्तोषः तृतीय शिष्यः वदति सन्तोषेण वदति ओ अहो भाग्यं महान् सन्तोषः वयं सर्वे सन्तुष्टाः स्मः वयं सर्वे इदानीम् एव गच्छामः
वयं सर्वे इदानीमेव गच्छामः तेन किम् अवगच्छामः वयं बहु उत्तमाः शिष्याः इति अवगच्छामः खलु तत्र अध्ययनं नास्ति चेत् अस्तु बहु सन्तोषः इति वदन्ति अस्तु अतः तत्र सन्तोषिण अहो भाग्यं महान् सन्तोषः वयं सर्वे
इदानीमेव गच्छामः
अस्तु
सर्वे गच्छामः सज्जाः भवन्ति सर्वे शिष्याः बहु सन्तोषेण गच्छामः इति
विलम्बः मास्तु इदानीमेव गच्छामः अस्तु अस्तु गच्छन्तु गच्छामः इति सज्जाः इत्युक्ते प्राय तत्र गन्तुं ते सर्वे सिद्धाः सन्ति
परन्तु बहु जागरूकतया गन्तव्यं गुरु वदति परन्तु बहु जागरूकतया गन्तव्यं तत्र सर्वेपि बहु जागरूकतया भवन्तु अतः यतः अहं भवतां बुद्धिमत्तां जानामि
इदानीं तत्र परन्तु
यतः
गन्तव्यं कथं गन्तव्यं
रथोत्सवे
तत्र गन्तव्यं किन्तु कथं गन्तव्यं
ओ कथं गन्तव्यं बहु जागरूकतया
तत्र बहु सावधानम् अपेक्षितमस्ति जागरूकतया गन्तव्यम् अस्ति इति गुरुः वदति किमर्थं सः वदति यतः
अहं भवतां बुद्धिमत्तां जानामि बुद्धिमत्ताम् इत्युक्ते किं
बुद्धिमत्तां भवतः बुद्धिः तत्र कीदृश ते सर्वे उत्तमाः वा शिष्याः अथवा उत्तमाः शिष्याः न वा
बुद्धिमत्तां जानामि इत्युक्ते अहं चिन्तयामि अहं मन्ये बुद्धिः बहु बुद्धिः नास्ति
बुद्धिः नास्ति
अत एव जागरूकतया गन्तव्यम् इति गुरुः वदति
तत्र ते सम्यक्तया चिन्तनं कर्तुं न शक्नुवन्ति इति सः अस्तु अस्तु धन्यवादः भगिनि
क्षम्यता महोदय एकः प्रश्न बहु जागरूकतया गन्तव्यम् अत्र तु तृतीया अस्ति बहु जागरूकतया किन्तु भवान् लघुप्रश्न तु कथं गन्तव्यम् केन गन्तव्यम् अपि समीचीनं
महोदय केन गन्तव्यमपि किन्तु तत्र केन गन्तव्यम् इति तत्र किं भवति भगिनि तत्र गन्तव्यम् इति अस्ति चेत् तत्र किं भवति तत्र सर्वदा तत्र केन इति वदामश्चेत् तत्र कर्मणि प्रयोगः एव भवति तत्र मया गन्तव्यम् इति तत्र एतत् कार्यं मया करणीयम् एतत् अत्र तत्र मया गन्तव्यम् इति वदामः तादृशप्रयोगः भवति किन्तु तत्र केन गन्तव्यम् इति तत्र पृच्छामश्चेत् तत्र कः तत्र कोऽपि तत्र गच्छति तत्र सः गच्छति एव इति तत्र तेन गन्तव्यम् इति किमपि अस्ति इति वयं चिन्तयामः कोऽपि पुरुषः अथवा अत्र शिष्यः इति किन्तु तादृशः अत्र नास्ति खलु तत्र तृतीया इति कर्मणि तृतीया नास्ति खलु भगिनि अत्र अतः अहं पृष्टवान् तत्र कथं गन्तव्यम् इति तत्र केनापि वक्तुं शक्नुमः किन्तु तत्र किञ्चित् क्लेशः भवति इति
तावत् अपि कीदृश गन्तव्यम् अपि समीचीनं
तत्र कीदृशं कीदृशं गन्तव्यं प्रायशः तदपि
कीदृशं गन्तव्यं
चिन्तनीयम् अस्ति प्रायशः तदपि वक्तुं शक्नुमः भगिनि किन्तु तत्र तत्र तृतीया अस्ति तत्र कर्मणि तृतीया तु इति नास्ति तत्र कर्मणि नास्ति तत्र कोऽपि तत्र सः तत्र किमपि अभवत् अतः तेन गन्तव्यम् अस्ति तत्र ग्रामं गन्तव्यम् अस्ति तेन ग्रामः गन्तव्यम् अस्ति गन्तव्यः इति तादृश किमपि नास्ति अतः तत्र जागरूकतया गन्तव्यम् इति तत्र तत्र कर्मपदं तत्र कर्तृपदं न दत्तम् अस्ति तत्र
न दत्तं
तत्र कर्तृपदस्य तृतीया नास्ति तत्र
परन्तु भवन्तः जागरूकतया बहु जागरूकतया गन्तव्यम्
तत् न भवति खलु तत्र तत्र भवन्तः इति अस्ति तत्र तस्य तृतीया किम् अस्ति
भवद्भिः
जागरूकतया गन्तव्यम् इति रूपं समीचीनं भवति
एकः प्रश्नः गुरुः वदति वदामि सावधानं शृण्वन्तु सावधानं शृण्वन्तु इति सावधानेन शृण्वन्तु इति अपि सम्यक् वा अवधानेन सह अवधानेन सह
सावधानेन शृण्वन्तु इति अपि तदपि भवति अत्र किम् अस्ति तत्र शृणोति इति अस्ति तत्र क्रियापदस्य विशेषणमपि भवति यथा नामपदस्य विशेषणं भवति तत्र क्रियापदस्य अपि विशेषणम् अड्वर्ब् इति यद्वदामः तदस्ति तत्र तादृशरूपम् अत्र अस्ति अतः तत्र क्रियाविशेषणम् अस्ति चेत् तत्र द्वितीयविभक्ति इति नियमः अतः सावधानं शृण्वन्तु इति अस्ति
अतः
तत्र तृतीया अपि सावधानेन शृण्वन्तु तत्र भावतृतीया अत्र क्रियाविशेषणम् इति द्वितीयं द्वितीयाविभक्ति
क्रियाविशेषणं सर्वदा द्वितीया विभक्ति अस्ति
ओके
द्वितीया विभक्त्याम् अस्ति ओके अस्तु महोदय धन्यवादः
अस्तु इदानीम् अस्तु तत्र भगिनी उक्तवती इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठति वा
आं महोदय
वयं बहु
वयं बहु जागरूकाः भवामः गुरु वयम् इत्युक्ते सर्वे
शिष्याः
उक्तवन्तः वयं बहु जागरूकाः बहुवचने अस्ति भवामः उत्तमपुरुषे बहुवचनं भवामः गुरु
जागरूकाः इति एकवचने किम् अस्ति
जागरूकः
जागरूकः समीचीनं
गुरु वदति भवतु लोट्लकार प्रथमपुरुष एकवचने सर्वे मिलित्वा एव गच्छन्तु सर्वे अपि बहुवचने अस्ति सर्वशब्दस्य बहुवचनं सर्वः सर्वौ सर्वे भवतु सर्वे मिलित्वा त्वा प्रत्यय एव गच्छन्तु इत्युक्ते सेपरेट्लि
तत्र सर्वे गच्छन्तु इदानीं तत्र ये मिलित्वा गच्छन्तु इति अस्ति सर्वे मिलित्वा गच्छन्तु इत्युक्ते किं तत्र एकत्र सर्वे एकत्र सन्ति सर्वदा एकत्र भवन्तु इति गमनसमये सर्वे एकत्र एव तिष्ठन्तु इति इदानीं तत्र एव इति अस्ति एव इति किं भवति
एव इत्युक्ते तत्र मिलित्वा एव गच्छन्तु
तत्र एव इति पदम् आगच्छति चेत् तत्र एव इति पदस्य प्रभावः इति जानाति खलु तत्र प्रभावः एव इति पदस्य प्रभावः कुत्र भवति कस्मिन् पदे भवति तस्य प्रभावः एव इति यदि वाक्ये भवति तत्र एव इति पदस्य प्रभावः कुत्र भवति कस्मिन् पदे तस्य प्रभावः भवति
वदामि
अस्तु गीताञ्जलि भगिनी वदतु भगिनी
इति मन्ये महोदय एव पदस्य पूर्वं यत् पदम् अस्ति तत्
तस्य उपरि
एव
प्रमुखप्रभावः प्रभावः भवति खलु उषा भगिनी
एकवारं
इत्युक्ते भगिनि तत्र भवान् एव गच्छतु अपि भवान् गच्छतु एव इति तत्र अर्थभेदः अस्ति खलु
आम् महोदय भवान् गच्छतु एव इत्युक्ते भवान् एव गच्छतु अन्य किमपि
न भवान् एव गच्छतु अन्यत् अस्ति भवान् एव गच्छतु एकमस्ति एकं वाक्यमस्ति भिन्नार्थकवाक्यमस्ति भवान्
गच्छतु एव
तत्र एव इति अस्ति भवान् गच्छतु एव तत्र एव किं करोति क्रियापदस्य उपरि तस्य प्रभावः भवति गच्छतु एव तत्र कोऽपि विकल्पः नास्ति गच्छति एव भवान् गच्छतु एव तत्र अन्यत् किमपि मा करोतु गच्छतु एव किन्तु भवान् एव गच्छतु इत्युक्ते तत्र अन्य कोऽपि गच्छति इति न केवलं भवान् एव गच्छति इति अतः तत्र एव यत्र अस्ति तत् किं करोति सीमा रचयति सीमा रचयति केवलम् इति अतः तत्र मिलित्वा एव अतः तत्र सर्वदा मिलित्वा एव
गच्छन्तु
अतः तत्र सर्वदा तत्र एकत्र तिष्ठन्तु इति अन्यत् किमपि न भवितव्यम् एकः अत्र अन्यः अन्यत्र इति तादृशः मास्तु मिलित्वा एव गच्छन्तु अग्रे
पञ्चमः वदति तथैव अस्तु गुरो
तथैव तथैव कुर्मः तथैव वयं कुर्मः गुरु
इति पञ्चमः
वदति अग्रे
गुरुः स्वागतं तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति गुरुः चिन्तयति सर्व दश शिष्याः मन्दमती बुद्धि अस्ति अतः सः वदति एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति
मम विश्वासः तत्र कस्मिन् विषये नास्ति एतेषां मन्दमतीनां
विषये तस्य विश्वासः नास्ति
इतोपि मम विश्वासः
नास्ति
पूर्वमपि नासीत् इदानीमपि नास्ति इदानीमपि नास्ति इतोपि मम विश्वासः नास्ति एते सर्वे वदन्ति वयं सर्वे मिलित्वा एव गच्छामः तिष्ठामः इति एते वदन्ति किन्तु ते तदेव कुर्वन्ति न वा इति मम विश्वासः नास्ति
परन्तु दश शिष्याः अपि मन्दमति अस्ति वा महोदय
प्रश्नः
महोदय तत्र स्वगतम् इति अस्ति स्वगतम् इत्युक्ते सः स्वस्य चिन्तनम्
इति
चिन्तनं करोति किन्तु तत्र स्व इति गतं मिलित्वा तत् तादृशम् अर्थं कथं भवति
स्वगतम् इत्युक्ते
स्वदीर्घ आकारः नास्ति किल महोदय
स्वगतं तत्र कुत्र गच्छति तस्य वाक् तत्र कुत्र गच्छति इति स्वगतम् अन्तर्गच्छति इति
तस्य चिन्तनम् अन्तर्गतः इति अर्थे वा
एतत् एतत् किम् अस्ति भगिनि एतत् नाटकम् अस्ति खलु
आम् आम्
अतः तत्र यत् चिन्तनं भवति तत् यत् सम्भाषणं भवति अपि यत् चिन्तनं भवति तत्र भेदः करणीयम् इति कृत्वा तत्र स्वगतम् इति दत्तमस्ति
गुरोः चिन्तनम् अस्ति न महोदय
शिष्यः
विषये
तत्र एतावत् सर्वं किमस्ति सम्भाषणं रूपेण आसीत् इदानीं तत्र गुरोः चिन्तनम् इति तत्र दत्तमस्ति तावदेव
तत्तु अवगच्छामि महोदय किन्तु तत् पदं कथं तादृशं अर्थं प्राप्नोति इति स्वगतम् इति गतम् इति अस्ति स्व इति अस्ति
स्व आत्मा इति तस्य इति
गतम्
गतम् तत्र
अस्तु तत्र चिन्तनं स्वस्य चिन्तनम् इति
अथवा गतं तेन एव सम्भाषणं करोति
अस्तु महोदय
इतोपि तत्र आवश्यकं चेत् पश्यामि भगिनि
पश्यामः
तत्र
समीचीनप्रश्नः एकम् ऊहां करोमि महोदय गतम् इत्युक्ते गतौ इत्युक्ते मनः स्वभाव एव तत्र अस्ति इत्युक्ते
चिन्तनम् इति किन्तु तत्र
मनः स्वभाव तत्र गतौ इत्युक्ते तत्र स्वगतौ इत्युक्ते मनसि एव
अस्तु
मनोगतम् इति अपि अधुना दृष्टवती महोदय मनोगतं मनोगतः इति अस्तु
इत्युक्ते किं भगिनि मनोगतम् इत्युक्ते किं
तत्र एतदेव अर्थे भगिनि मनोगतं मनसि गच्छति इति मनसि स्वस्य मनसि गच्छति इति
तत्र गत्वा तत्र सम्भाषणं करोति इति
अस्तु धन्यवादः महोदय
अहं किमपि न कृतवान् भवती एव अन्वेषणं कृतवती
न महोदय भवान् अपि उक्तवान्
अस्तु अग्रे अग्रे कः
अस्तु महोदय मम विश्वासः नास्ति इति चिन्तयति अतः एवं करोमि अतः एवं करोमि करोमि अत्र उत्तमपुरुषे अस्ति प्रकाशः
नाटकरङ्गः अस्ति खलु तत्र प्रकाशः भवति
प्रकाशः भवति इत्युक्ते
लैट् लैट् इति तत्र तत्र
लैट्
रङ्गमञ्चे
तत्र नाटकमस्ति खलु भगिनि
रङ्गमञ्चे रङ्गमञ्चे प्रकाशः रङ्गमञ्चे प्रकाशितः भवति प्रकाशितः भवति
गुरुः वदति सर्वे पङ्क्तिशः तिष्ठन्तु इति पङ्क्तिशः इत्युक्ते
पङ्क्तिरूपेण
तिष्ठन्तु बहुवचने अस्ति शिष्याः तिष्ठन्ति अनन्तरं गुरुः गणयति एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश पश्यन्तु भवन्तः दश जनाः सन्ति
इति प्रदर्शयति सः प्रदर्शयति किं प्रदर्शयति भवन्तः कति जनाः सन्ति
दश जनाः सन्ति
इति
मध्ये मध्ये परिशीलयन्तु सर्वे आगताः वा कोऽपि च्युतः वा इति
मध्ये मध्ये निर्गतः वा इति तत्र नास्ति वा इति लेफ्ट् औट् इति तत्र कोऽपि तत्र नास्ति वा इति अन्वेषणं कुर्वन्तु परिशीलयन्तु परिशीलनं कुर्वन्तु केवलम् एकवारं न किन्तु अनेकवारं मध्ये मध्ये वारं वारं गणयन्तु इति सः वदति अग्रे भगिनि
षष्ठः वदति अवश्यं परिशीलयामः गुरो वयं गच्छामः अवश्यम् इति लैक् अवश्यं परिशीलयामः गुरो वयं गच्छामः अनन्तरं सर्वे गच्छन्ति गुरुः शुभं भवतु इति आशीर्वादं दत्तवान् गुरुः गच्छति गुरुः अपि गच्छति शिष्याः सन्तोषेण नृत्यन्तः अन्यस्यां दिशि गच्छन्ति शिष्याः सन्तोषेण तृतीयविभक्ति नृत्यन्तः नृत्यन्तः कोलाहलेन
नृत्यन्तः इति किमस्ति तत्र
उत्साहेन
नृत्यन्निति तत्र नृत्यन्तः इति नृत्यन्
नृत्यन्तः
इति
अन्यस्यां दिशि
अन्यस्यां दिशि
सप्तमी
तत्र दिशि इति सप्तमी अन्यस्याम् इति तत्र दृष्ट्वा दिशि इति पदस्य लिङ्गं किम् इति
दिशि नपुंसकलिङ्ग अस्ति
अन्यस्याम् इति अस्ति
अन्यस्यां स्त्रीलिङ्गे अस्ति
अतः दिशि अपि स्त्रीलिङ्गपदम् अन्यस्यां दिशि गच्छन्ति इति समीचीनं
दिशि सप्तमविभक्ति अस्ति इत्युक्ते प्रथमविभक्ति
जानाति वा
दिक्
समीचीनम् अग्रिमे भागे एतत् सर्वं भवति हलन्तपदानां परिचयः द्वितीयभागे गीतासोपाने भवति तत्र दिक् इति तत्र हलन्तपदम् एतावत् वयं न जानीमः अत्र प्रथमभागे केवलम् अजन्तपदानां परिचयः अभवत् किन्तु द्वितीयभागे गीतासोपाने तत्र हलन्तपदानां परिचयः अपि भवति तत्र दिक् इति दिशि इति अस्तु
महोदय मन्दमतीनां आल्सो मन्दमतिन् इति नकारन्त हलन्तपदं वा नो मन्दमती मन्दमतिन् विल् बि नकारान्त हलन्तशब्दः
प्रायश तादृश एव भवति इति मन्दमत् न मन्दमतीनाम् इति प्रायश तत् सत्यं भगिनि
मन्दमतिन् गुणिन्वत्
गुणिन्वत् गुणिनाम् इति तत्र सत्यं भगिनि यस्य तत्र तत्र मन्दमत् इति मन्दमत् इति अस्ति किन्तु मन्दमती तत्र मत् मन्दमत् इति भवति भगिनि तत्र मन्दमती किन्तु तत्र मतुप्रत्ययः तत्र मन्द किञ्चित् चिन्तित्वा वदामि भगिनि किन्तु प्रश्नः समीचीनः एव
षष्टितत्पुरुषः
भवति अतः मन्दमति इति समस्तपदमस्ति
किञ्चित् चिन्तनीयमस्ति भगिनि तत्र मन्दमत् इति भवति बुद्धिमत् इति किन्तु बुद्धिमत् मन्दमत् इति किन्तु तत्र तत्र मन्दमती इति किञ्चित् भिन्नम् अस्ति भगिनि दृष्ट्वा वदामि भगिनि
मतीशब्दः नास्ति वा महोदय
न मतीशब्दः नास्ति भगिनि नास्ति इति मन्ये अस्तु अग्रे श्रीप्रिया भगिनी अग्रे पठति वा तत्र किञ्चित् विवृणोति वा अग्रे
प्रथमः भोः सर्वे शीघ्रम् आगच्छन्तु नो चेत् विलम्बः भवति प्रथमः वदति सर्वे शीघ्रं वेगेन आगच्छन्तु शीघ्रम् आगच्छन्तु इति नो चेत् विलम्बः जातः इति
विलम्बः भवति अतः शीघ्रेण गच्छामः
सर्वे आगताः भोः आगताः सर्वे मिलित्वा वदन्ति सर्वे अत्र सन्ति इति द्वितीयः वयं सर्वेपि स्मः किल
तत्र सः स्मरति तत्र गुरोः वचनं स्मरति एषः गुरुः किम् उक्तवान् पूर्वं मध्ये मध्ये गणयन्तु इति सः उक्तवान् अतः एषः तद् वाक्यं स्मरति गुरोः वाक्यं स्मृत्वा सः एतद् वदति
स्मृत्वा वदति वयं सर्वेपि स्मः किल इति परिशीलनं करोति पुनः
पठतु भगिनि
सर्वे स्मः कः संशयः किमर्थं संशयः इति वदति सर्वे स्मः इति वदन्ति तृतीयः वदति परन्तु मित्राणि वयम् इदानीमेव एकां नदीं तीर्त्वा अग्रे आगतवन्तः तत्र सर्वेपि नदीं तीर्णवन्तः वा इति मम संशयः इदानीं तु सर्वे नदीं तीर्त्वा आगतवन्तः, अतः सः गणनां कर्तुम् इच्छति सर्वे सन्ति वा न वा इति.
अतः तत्र वयम् इदानीम् एव एकां नदीं तीर्त्वा, तत्र नदीम् इति कर्मपदं, तीर्त्वा त्वान्तं
तीर्त्वा इति प्रत्ययः, अग्रे आगतवन्तः
तत्र आगतवान् आगतवन्तः इति
तव तु प्रत्ययस्य तत्र सर्वेपि नदीं तीर्णवन्तः वा इति मम संशयः.
हा तत्र तीर्णवन्तः इति एकवचने रूपं किं भवति?
तीर्णवान्
तीर्णवान् श्रीलिङ्गे
तीर्णवती
तीर्णवती. हा तत्र उत्तीर्णः इति तादृश एव तत्र परीक्षायाम् उत्तीर्णः सः एषः परीक्षायाम् उत्तीर्णः अभवत् इति तादृशरूपं तत्र तीर्णवान् तीर्णवन्तः इति. अस्तु अग्रे
द्वितीयः, ममापि सः एव संशयः. द्वितीयः अपि वदति तस्यापि एषः एव संशयः अस्ति इति. सर्वे सन्ति वा न वा इति
न वा इति.
चतुर्थः वदति अतः एव गुरुः उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति. पुनः गुरोः वचनं स्मरन्ति सर्वे.
तत्र मध्ये मध्ये केवलम् एकवारम् इति न, किन्तु मध्ये मध्ये तत्र मध्ये मध्ये अस्ति चेत् तत्र वारं वारम् इति तत्र तत्र परिशीलनं कुर्वन्तु इति गुरुः उक्तवान्. अग्रे
उक्तवान् इति तव तु प्रत्ययः परिशीलयन्तु अपि लोट्लकारे
बहुवचनं समीचीनं भगिनि. अस्तु अग्रे
पञ्चमः, सत्यं दशजनाः अपि स्मः वा इति इदानीम् एव परिशीलयामः. पञ्चमः वदति इदानीमेव गणनां कुर्मः इति.
तत्र ते स्मरन्ति तत्र दशजनाः वयं स्मः इति ते स्मरन्ति. अतः सः वदति वयं दशजनाः अपि स्मः वा इति इदानीमेव परिशीलयामः
गणनां कुर्मः
इति. अग्रे
षष्ठः, मित्राणि भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु अहं गणयामि सर्वे तिष्ठन्ति. षष्ठः वदति सर्वे पङ्क्ति क्रमशः तिष्ठन्तु अहं गणनां करोमि इति वदति. इदानीं गणयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव नवपर्यन्तम् एव गणयति.
अतः तत्र आश्चर्यः भवति तस्य, सः चकितः भवति.
अतः प्रथमः सत्यं खलु, दशमः कुत्र गतः?
तत्र वयं दशजनाः आसम् इदानीं तत्र दशमः कुत्र गतः इति प्रश्नः उदेति. इदानीं तत्र दशमः कुत्र अस्ति, सः कुत्र गतः इति प्रश्नः. अस्तु अग्रे शोभा भगिनि.
आम् महोदय. द्वितीयः, भोः भवान् गणनां सम्यक् न जानाति, आगच्छतु अहं गणयामि. तत्र द्वितीयः वदति भोः इति सम्बोधनं, भवान् गणनां सम्यक् न जानाति. तत्र गणनम् इति गणना अस्ति, अतः द्वितीय विभक्ति कर्मपदं गणनां सम्यक् गणनां सम्यक् न जानाति. आगच्छतु लोट्लकारे अहं गणयामि. गणयामि तत्र स्वार्थे णिच् प्रत्ययः इति प्रत्ययः इति मन्ये. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव
सः अपि चकितः
भवति. अपि च वदति सत्यमेव खलु, नवजनाः एव सन्ति. चतुर्थः
अपि आश्चर्येन वदति
नवजनाः तत्र जनाः
दशजनाः
तत्र जनाः
तत्र दशजनाः स्थातव्यः, किन्तु इदानीं किम् अस्ति,
किमपि ते गणनां कुर्वन्ति कीदृशमपि, तथापि यः कोऽपि गणनां करोति
किन्तु तथापि नवजनाः
एव गणने न गणनायाम् इति अस्ति वा महोदय,
तत्र गणनाम् अस्ति अथवा गणनायाम् इति प्रायः
गणनायां गणना स्त्रीलिङ्गे अस्ति वा,
अत्र गणनाम् इति अस्ति खलु भगिनि, गणनां सम्यक् न जानाति गणना इति,
तत्र चतुर्थः वदति तर्हि दशमः कः, सः कुत्र गतः, चतुर्थः वदति तर्हि नवजनाः एव सन्ति चेत् दशमः कुत्र गतः,
कः अपि कः अत्र नास्ति इति एकः प्रश्नः, अत्र नास्ति चेत् सः कुत्र गतः इति,
अतः ते सर्वे चिन्तिताः भवन्ति. पञ्चमः वदति अत्र एव स्यात्, एतेषु एव स्यात्, तत्र स्यात् इति विधिलिङ्गे विधिलिङ्गलकारे स्यात् इति अस्ति एव इति, तत् अत्र एव भवति भवनीयम् इति अर्थे किल
महोदय, इत्युक्ते तत्र अन्यत्र न स्यात् अत्र एव स्यात्
अत्र एव स्यात्
तत्र अन्यत्र गतः इति वयं न वक्तुं शक्नुमः, अतः यदि सः अन्यत्र नास्ति अतः कोऽपि विकल्पः नास्ति खलु, सः अन्यत्र कुत्रापि न भवेत् अतः अत्र एव स्यात्
अत्र एव स्यात् एतेषु एव स्यात् एतेषु
एतेषु एतेषु ये जनाः अत्र सन्ति तेषु एव
तेषु अन्यतमः एव
दशमः स्यात् इति,
एतेषु दशमः कः, दशमः कः इति इति किं तत्र कन्फ्यूजन् इत्युक्ते किं महोदय,
क्लेशः
क्लेशः
तत्र प्रथमः द्वितीयः तृतीयः सर्वे सन्ति किन्तु दशमः तत्र नास्ति, यः कोऽपि गणयति तत्र प्रथमः अस्ति द्वितीयः अस्ति तृतीयः अस्ति चतुर्थः अस्ति किन्तु दशमः न लभ्यते, तत्र सः कः इति न जानीमः, सः कुत्र गतः इति अपि न जानीमः इति. अग्रे
पथिकः, तत्र तु एकः पथिकः इत्युक्ते प्रवासी,
तत्र मार्गे यः गच्छति,
यात्रिकः इति अपि भवति वा महोदय, पर्यायवाचक
यात्रिकः
पथिकः आगच्छति अथवा अस्ति
प्रविश्य
आगच्छति प्रविश्य तत्र विश् धातुः लेफ् प्रत्ययः प्रविश्य प्रा उपसर्ग, सः वदति भोः कः कोलाहलः, का समस्या भवताम् इति, तत्र कोलाहलः इति पुंलिङ्गे अतः कः कोलाहलः, कोलाहलः इत्युक्ते बहवः शब्दाः आगच्छन्ति तदा कोलाहलः इति,
चकिताः सन्ति, एतत् कथम् अभवत्, एतत् कथम् अभवत्, दशमः कुत्र अस्ति अत्र अस्ति वा इति, तत्र सर्वे
तत्र ते सर्वे एकस्मिन् काले वदन्तः सन्ति
सन्ति अतः तत्र
कोलाहलः भवति, चकिताः अपि अभवन्, का समस्या भवताम्, तत्र समस्या अपि स्त्रीलिङ्गे समस्या, का समस्या इति अस्ति अतः भवताम् इत्युक्ते तत्र द्वितीया विभक्ति
न
न भवतां षष्टि
बहुवचनं
षष्टि विभक्ति, का समस्या भवतां
समस्या का
का इति. पञ्चमः वदति भोः गुरोः आदेशानुसारं वयं दशजनाः रथोत्सवार्थं प्रस्थिताः तत्र गुरोः आदेशानुसारम् आदेशस्य अनुसारं समस्तपदं
गुरोः
इति षष्टिविभक्ति
तस्य गुरुः यः अस्ति तस्य
तस्य आदेश
अनुसारम्
आदेश अनुसारं
तत्र आदेशम् अनुसृत्य
आम् आम् आदेशम् अनुसृत्य वयं दशजनाः रथोत्सवार्थं तत्र रथस्य उत्सवार्थम्
अत्र तत्र चतुर्थी अपि स्थापितुं शक्नुमः खलु तत्र
रथोत्सवाय
रथोत्सवं द्रष्टुं
प्रस्थिताः आम् इदानीं पश्यामः अधुना एव वयं दृष्टवन्तः
तत्र प्रस्थानसमये वयं दशजनाः आसम्
आसन् आम् अधुना इदानीं गणनां कृतवन्तः नवजना एव स्मः अधुना तु दशजनाः आसन् अधुना तु नवजना एव स्मः तत्र जनाः इत्यस्य विसर्गस्य लोपः इति मन्ये महोदय
तत्र जनाः एव इति जना एव इति वा तत्र विसर्गः अपि तत्र अस्तु प्रायशः तदपि अस्ति तत्र विसर्गः अपि स्थापितुं शक्नुमः इति मन्ये तत्र विकल्पेन तत्र गच्छति इति मन्ये भगिनि इदानीं तत्र
तत्र तु नवजनाः एव अतः कोलाहलः तदनन्तरं हा हन्त
इत्युक्ते तत्र ओ किम् अभवत् इति तत्र रोदनसमये एतत् सर्वं वदन्ति तावदेव
अस्तु हा इत्युक्ते तत्र हन्त इत्युक्ते हन्ति इति अर्थे एव महोदय हन्तः इति वा
इति तादृशं नास्ति इति मन्ये भगिनि तत् केवलम् एतदेव शब्दः तत्र तस्य प्रयोगः भवति तत्र
किमर्थं चेत् ते नदीं तीर्त्वा आगतवन्तः
तद्भिन्नम् अस्ति तत्र कोऽपि तत्र कस्यापि मरणम् अभवत् इति तादृश अर्थः अत्र नास्ति केवलं तत्र हन्त एतद् किमपि पतितम् अस्ति तत्र दुर्घटना अभवत् किं कुर्मः इति तादृश अर्थे तत्र एतद् पदं भवति तत्र तावदेव तत्र किं कुर्मः एतत् शब्दः भवति तत्र तस्य महत्वं किमपि नास्ति इति मन्ये
अहो इति अव्ययं
तादृशं
तादृश अर्थे
अर्थे एव
अनुकम्पे अनुकम्पायाम् अथवा
हा तत्र ओ इति रोदनसमये एतत् सर्वं तस्य प्रयोगः भवति तावदेव
एतत् उक्त्वा सः उच्चैः रोदनं करोति
रोदिति समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे किञ्चित् पठति वा
अस्तु महोदय पञ्चमः नाहि पश्यतु अहमेव गणयित्वा दर्शयामि पञ्चमः वदति
न इदानीं तत्र पतिकः स्वगतम् इति
ओ अस्तु पतितः स्वगतम्
सः चिन्तनं करोति मनसि चिन्तनं
चिन्तनं करोति कथम् एवं वदति एषः
एषः एतद् वदति कथम् एषः वदति
मनसा एव सर्वान् गणयति
सः सर्वान् गणयति
सः
किं सः अवगच्छति तत्र कति जनाः सन्ति इति सः अवगच्छति तत्र दशजनाः सन्ति इति सः अवगच्छति
मञ्जे नास्ति, सः मनसि चिन्तयति, अनन्तरमेव प्रकाशः
गणयति गणयति सः जानाति इदानीं तत्र तत्र दशजनाः सन्ति इति सः इदानीं जानाति. अतः प्रकाशः, प्रकाशः इत्युक्ते तत्र
प्रकाशः,
मनसि अपि प्रकाशः, प्रायशः रङ्गे अपि प्रकाशः. अस्तु अग्रे.
इदानीमेव सः वदति वा?
हा, भोः इति इदानीं तत्र भोः इति वदति सः.
इदानीं वदति भोः, सर्वे सन्ति खलु?
सः
मनसि गणयति, अनन्तरं वदति सर्वे सन्ति खलु इति वदति. पञ्चमः वदति, नहि नहि पश्यतु, अहमेव गणयित्वा दर्शयामि. तदा पञ्चमः शिष्यः वदति, अहमेव गणयित्वा दर्शयामि. अहं
तत्र भवान् वदति तत्र दशजनाः सन्ति इति भवान् वदति, किन्तु
सः न अङ्गीकृतवान्. सः वदति अहमेव गणयित्वा दर्शयामि, अत्र नास्ति इति वदति. सः
गणयति इति
न सन्ति
इति अहं दर्शयामि, अहं प्रदर्शयामि.
सः गणनं गणनस्य आरम्भं करोति. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव, पश्यतु नवजनाः एव स्मः, दशमः कुत्र गतः? सः गणनं करोति,
गणयति
गणयति नव एव गणयति.
तत्र प्रथमः अस्ति, द्वितीयः अस्ति, तृतीयः अस्ति, किन्तु नवमः अपि अस्ति, किन्तु
दशमः न, दशमः न
नास्ति
गणयति.
तत्र स्वयम्
एव दशमः इति तस्य ज्ञानं नास्ति. सः वदति पश्यतु नवजनाः एव स्मः, अत्र नवजनाः एव सन्ति, दशमः कुत्र गतः इति पृच्छति.
दशमः कुत्र गतः? सः अत्र नास्ति, दशमः शिष्यः अत्र नास्ति इति सः वदति. इदानीं पथिकः किं वदति?
पथिकः हसन्,
हसन् इति
शत्रुप्रत्ययः. मित्र, भवान् एव दशमः, दशमः यः दशमस्य अन्वेषणं करोति.
मित्र, भवान् एव दशमः,
सः वदति भवान् एव दशमः शिष्यः यः दशमस्य अन्वेषणं करोति सः भवान् एव इति वदति.
यः भवान्? भवान् कीदृश भवान्? भवान् दशमस्य
अन्वेषणं
करोति, किन्तु यः अन्वेषणं करोति सः एव दशमः, सः एव दशमः. इदानीं सर्वे
निष्कम्पाः तिष्ठन्ति.
तत्र विदौट् शेकिङ्ग्, तत्र कम्पनं न कुर्वन्ति. निष्कम्पाः इति तत्र विशेषणं भवति, सर्वे तिष्ठन्ति, कीदृश सर्वे? निष्कम्पाः, सर्वे
निष्कम्पाः तिष्ठन्ति. निरूपकः नेपथ्ये वदति.
निरूपकः इत्युक्ते यः तत्र नाटकस्य निरूपणं करोति, डिरेक्टर् अथवा प्रोड्यूसर् इति वदामः,
यः निरूपणं करोति सः वदति
नेपथ्ये
वदति.
नेपथ्ये इत्युक्ते तत्र सः न दृश्यते,
न दृश्यते अन्ये
तत्र,
अन्य कुत्रापि,
न न तत्र आकाशवाणी इति वदामः खलु, तत्र यः वदति इति सः न दृश्यते खलु, तादृशः तत्र नेपथ्ये इत्युक्ते सः पृष्ठतः
शब्दमेव श्रूयते,
शब्दः एव श्रूयते, यः वदति सः न दृश्यते इति. अतः
नेपथ्ये
तत्र वाणी एव श्रूयते इति. अस्तु, इदानीं तत्र शुभदा भगिनी अन्तिमपरिच्छेदः पठतु भगिनि.
आम् महोदय. निरूपकः, मित्राणि, एषः एव लोकस्य व्यवहारः, एवमेव अवयम्
आत्मनः अन्वेषणं कुर्वन्तः भवामः. अस्तु महोदय. विषयः देहः, इन्द्रियाणि, प्राणाः, मनः, बुद्धिः, अहंकारः, चित्तम्, अज्ञानम् इत्येतेषु अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः. परन्तु वयं न जानीमः यत् यः अन्वेषणं करोति सः एव आत्मा, सः एव परमं ब्रह्म.
तत्र एक केवलम् एकेन परिच्छेदेन तत्र हास्यास्पदनाटकं तत् आध्यात्मिक किं नाटकम् अभवत्. तत्र किम् अस्ति
सिदानन्दरूप अस्ति न महोदय?
तादृशं वक्तुं शक्नुमः. सत्यं, हा सत्यमेव. हा तत्र किम् अस्ति तत्र? अस्तु, तत्र धन्यवादः भगिनि. इदानीं तत्र अन्य कोऽपि वदति वा तत्र? अस्तु, ललिता भगिनी वक्तुम् इच्छति वा अत्र?
किम्
अन्तिमपरिच्छेदस्य किं किम् अस्ति इति?
आत्मा.
इदानीं निरूपकः मित्राणि इति.
निरूपकः मित्राणि, एषः एव लोकस्य व्यवहारः. पठनीयः
कः? कः लोकस्य व्यवहारः?
कः
कः व्यवहारः तत्र? दशमः कः इति? दशमः कः तत्र? नवजनाः एव सन्ति. एतत् नास्ति, अत्र नास्ति, तत्र एतत् भवितव्यं किन्तु अत्र नास्ति, कुत्र गच्छ, कुत्र गतः इति, तत्र तादृश एव लोकस्य व्यवहारः खलु?
लोकस्य लौकिकव्यवहारः अस्ति. लौकिकव्यवहारः,
लौकिकव्यवहारः तादृशः अस्ति. हा एवमेव,
एवमेव वयम् आत्मनः अन्वेषणं कुर्वन्तः भवामः. आत्मनः षष्टिविभक्ति अस्ति. आत्मनः, आत्मन् शब्दस्य अन्वेषणं कुर्वन्तः.
तत्र वयं
किं कुर्वन्तः? अन्वेषणं कुर्वन्तः.
कस्य अन्वेषणम्?
आत्मनः अन्वेषणं विशेषणं, विशेषणं विशेष्य कुर्वन्तः क्रियाशब्दम् अस्ति. कुर्वन्तः तत्र शत्रुन्तप्रयोगः.
तत्र अस्ति विशेषण विशेषभावः.
आत्मनः विशेषणं
किम्?
अन्वेषणं.
न किमर्थम्?
आत्मनः इति विशेषम्.
अस्तु, तत्र विशेषं विशेषणं तयोः तादृशसम्बन्धः अस्ति चेत् कः नियमः तत्र? विभक्ति विषये कः नियमः? द्वितीयविभक्ति खलु?
द्वितीयविभक्ति अस्ति.
आत्मनः षष्टि तत्र, तत्र विशेषणं विशेषभावः नास्ति तत्र. वयं कुर्वन्तः भवामः, वयं भवामः किं, कीदृश भवामः? कुर्वन्तः भवामः. कुर्वन्तः किमस्ति?
कुर्वन्तः शत्रुप्रयोगः.
एकवचने किम् अस्ति?
एकवचनं कुर्वन्, कुर्वन्तौ, कुर्वन्तः, बहुवचन प्रथमा बहुवचन कुर्वन्त्यः, कुर्वन्ति, कुर्वन्त्यौ, कुर्वन्त्यः
इति. समीचीनं भगिनि. अतः कुर्वन्तः, वयं कुर्वन्तः इति. तत् किं, किमर्थं तत्र रूपभेदः अस्ति? तत्र पुल्लिङ्गरूपम् अस्ति, स्त्रीलिङ्गरूपम् अस्ति इति अस्ति चेत् तत् क्रियापदं नास्ति खलु? लिङ्गभेदः अस्ति चेत् खलु? अतः कुर्वन्तः इति नामपदम्
क्रियापदमस्ति.
भवामः क्रियापदमस्ति, कुर्वन्तः इति नामपदमस्ति. कीदृशनामपदम् अस्मिन् वाक्ये? वयम् इति शब्दस्य
वयं उत्तमपुरुष, उत्तमपुरुषः अस्ति.
वयम् इति शब्दस्य विशेषणमस्ति कुर्वन्तः. वयम् इति विशेषणं, कुर्वन्तः इति विशेषणं. किं कुर्वन्तः, किं कुर्वन्तः वयम्?
अन्वेषणं कुर्वन्तः.
अन्वेषणं कुर्वन्तः वयं, तत्र अन्वेषणं कुर्वन्तः वयं. कस्य अन्वेषणं कुर्वन्तः वयम्?
आत्मनः अन्वेषणम्.
आत्मनः अन्वेषणं कुर्वन्तः वयम् एवमेव भवामः. एतदेव वयमपि कुर्वन् स्मः. किं कुर्वन् स्मः? तत्र दशमस्य अन्वेषणं कुर्वन् स्मः वयमपि. तत्र यथा शिष्याः दशमः कुत्र अस्ति, दशमः कः इति अन्वेषणं कृतवन्तः, तथैव वयमपि आत्मनः अन्वेषणं कुर्वन् कुर्वन्तः स्मः. आत्मा कुत्र अस्ति, आत्मा कः इति दशमः.
आत्मनः अन्वेषणं करणीयं वयमपि.
न न, करणीयम् इति न, कुर्वन्तः स्मः वयं, किन्तु कथं वयं तस्य अन्वेषणं कुर्वन् स्मः इत्युक्ते आत्मा कः, आत्मा कुत्र अस्ति, कुत्र गतः. आत्मा तु न दृश्यते, आत्मा कुत्र अस्ति. आत्मा अत्र भवितव्यमस्ति, किन्तु आत्मा अत्र नास्ति. आत्मा कुत्र अस्ति इति वयम् अन्वेषणं कुर्वन्तः भवामः.
विषयः, देहः, इन्द्रियाणि, प्राणाः, मनः, बुद्धिः, अहङ्कारः, चित्तम्, अज्ञानम् इत्येषु विषयः इत्येतेषु अन्यतमः एव इत्येतेषु अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः.
अस्तु, इदानीं तत्र अन्य कोऽपि पठन् पठतु. अस्तु, तत्र गीताञ्जलि भगिनी अग्रे पठति वा?
आम् महोदय. विषयः इति महोदय,
तत्र
विषयः
एतावत् किम् अभवत्? तत्र वयं कस्य अन्वेषणं कुर्वन्तः भवामः वयम्?
आत्मनः अन्वेषणं कुर्वन्तः वयं सर्वे
भवामः. किन्तु कीदृशं अस्माकम् अन्वेषणं कीदृशम् अस्ति? तत्र एवमेव अस्ति इत्युक्ते तत्र आत्मा कुत्र अस्ति, आत्मा कः, तत्र यथा तत्र दशमः कः, तथैव अस्माकम् अन्वेषणमपि अस्ति. आत्मा कुत्र अस्ति, आत्मा कः इति तादृश अस्माकम् अन्वेषणम् अस्ति.
विषयः, देहः, इन्द्रियाणि, प्राणाः, मनः, बुद्धिः, अहङ्कारः, चित्तम्, अज्ञानम्. एकं सूची अस्ति अत्र, सूची न महोदय?
तत्र कति कति जन कति विषयाः दत्तानि दत्ताः
नव नव एव महोदय, दशमा कः?
तत्र एकः अस्ति, प्रथमः अस्ति विषयः, द्वितीयः सः अपि अस्ति सः देहः, तृतीयः इन्द्रियाणि सः अपि अस्ति, प्राणः अस्ति, मनः अस्ति, बुद्धिः अस्ति, अहङ्कारः अस्ति, चित्तम् अस्ति, अज्ञानम् अस्ति. किन्तु दशमः कुत्र, कुत्र अस्ति इति इत्येतेषु इत्येतेषु इत्युक्ते इति एतेषु नवविषयेषु
नवविषयेषु नवषु विषयेषु इति
दत्तेषु विषयेषु
अन्यतमः एव आत्मा स्यात् इति
तत्र एव चिन्तयन्तः तत्र अन्यतमः एव इत्युक्ते
अन्यतमः इत्युक्ते इन् दीस् ओन्लि
हा एतेषु एव एतेषु एव
एतेषु
एव तत्र इदानीं तत्र तत्र भवितव्यम् आत्मा तत्र भवितव्यः किन्तु कः दशमः इति तस्य अभिज्ञानं नास्ति तत्र एतेषु एकः दशमः अस्ति किन्तु एतेषु कः दशमः इति न जानीमः वयं खलु तत्र चिन्तयन्तः पुनः तत्र शत्रन्त
चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः कुर्मः तु क्रियापदं चिन्तयन्तः इति तु शत्रन्तबहुवचनरूपं
तत्र तत्र एव इत्युक्ते कुत्र
तत्र इत्युक्ते सर्वे अन्यतमः एव
हा तत्र ये ये विषयाः दत्ताः तेषु एव तत्र एव अन्यत्र अन्यत्र तस्य अन्वेषणं यथा तत्र शिष्यः यः गणयति सः किं कृतवान् अन्यान् शिष्यान् अन्य अन्ये ये शिष्याः सन्ति तेषां तेषां गणनां कृतवान् तथैव वयमपि तत्र किं कुर्मः अन्वेषणसमये वयं किं कुर्मः तत्र एव स्यात् इति चिन्तयित्वा एतेषु विषयेषु एव वयम् अन्वेषणं कुर्वन्तः स्मः तस्य अन्वेषणं तस्य इति कस्य
तस्य इत्युक्ते आत्मनः
तस्य आत्मनः
अन्वेषणं कुर्मः
परन्तु
वयं न जानीमः यत् यः अन्वेषणं करोति सः एव आत्मा
यथा तत्र यः गणयति सः एव दशमः इति यथा सः न ज्ञातवान् तथैव वयमपि न जानीमः
तदेव आत्मा
हा यः गणयति यः अत्र यः गणयति अत्र यः अन्वेषणं करोति सः एव आत्मा सः एव परमं ब्रह्म इति
महोदय ब्रह्म इति किं पदं महोदय
ब्रह्मण् नकारान्तपदं ब्रह्मन् नकारान्तपदं
नपुंसकलिङ्गं कर्मन् वत्र ओ ओके
ब्रह्मः इति अस्ति
ब्रह्मः परन्तु विसर्गः
तत्र सम्बोधन
हा किन्तु प्रायशः तत्र ब्रह्मन् इति अस्ति इति मन्ये भगिनी नकारान्तपदम् इति मन्ये
अत्र प्रथमविभक्तौ ब्रह्मः इति अस्ति महोदय तत्र किल ब्रह्मन्
परन्तु अत्र सम्बोधनं नास्ति भगिनि सः एव परमं ब्रह्म
अत्र सम्बोधनं नास्ति अत्र केवलं परमं ब्रह्म इति
अस्ति चेत् सम्यक् भवति कर्म कर्मणि कर्माणि
न स्मरामि भगिनि किन्तु हलन्तपदम् इति जानामि
ब्रह्मन् इति वदति
अस्तु अतः तत्र कथमासीत् एतत्
महोदय एक प्रश्नः महोदय
वदतु भगिनि
गुरुः वदति मन्दमतीनां दशम सर्वाणि सर्वाः नो सर्वैः नाम महोदय दशशिष्याः अपि मन्दमती इति चिन्तयति एनी सिग्निफिकेन्स् बिट्वीन् मन्दमति शिष्यः अपि च विषयः देहः इन्द्रियाणि अस्ति वा महोदय तत्र
प्रायशः भगिनि तत्र एतत् सर्वं तस्य उपरि कम्पेरिसन् इति वक्तुं शक्नुमः तत्र यथा तत्र उत्तमचिन्तनं तस्य अपेक्षया तत्र एते तद् कर्तुं न शक्नुवन्ति उत्तमचिन्तनम् एते न कर्तुं शक्नुवन्ति. तथैव तत्र विषयः देहः इन्द्रियाणि वा, तत्र भेदः अस्ति खलु इति तावदेव. तत्र बहु किमपि अस्ति इति न वक्तुं शक्नुमः इति मन्ये भगिनि. तत्र
क्षम्यतां, बुद्धिमत् बुद्धिमत् मन्दमत् द्वे अपि अस्ति न.
तत्र बुद्धिमत्ताम् इति प्रायशः तत्र
बुद्धिमत्ता
प्रायः इति मन्ये. तत्र बुद्धिमत्ता इति बुद्धिमत् बुद्धिमत्ता इति प्रायः भावः अस्ति इति मन्ये.
महोदय, तत्र द्वे विधे ब्रह्म इति पदं भवति महोदय. ब्रह्म ब्रह्मन् इति ब्रह्मा दीर्घ आकारः भवति प्रथमविभक्तौ, अपि च ब्रह्म ह्रस्व अकारस्य नपुंसके नपुंसकलिङ्गे अपि भवति महोदय.
ओ अस्तु अस्तु भगिनि, किन्तु अस्तु अत्र प्रायश
अत्र तु नपुंसकलिङ्गे ब्रह्म.
ओ अस्तु, अकारन्त अजन्तपदमिति वा?
आम् महोदय.
ओ अस्तु भगिनि, अहं चिन्तितवान् ब्रह्मन् यत् अहं जानामि तदेव इति, इदानीं नास्ति. अस्तु अस्तु भगिनि, धन्यवादः.
किन्तु तत्तु पुंलिङ्गे ब्रह्म, तत्र अधुना एव हलन्त ब्रह्म इति भवति, पुंलिङ्गे अस्ति. अपि च ब्रह्म ह्रस्व अकारः अजन्त अस्ति चेत् नपुंसकलिङ्गे.
अस्तु,
द्वे अपि
सः. अस्तु भगिनि, किन्तु अत्र किञ्चित् क्लेशः अस्ति, यतोहि तत्र सः एव परमं ब्रह्म.
भेदः अस्ति वा भगिनि, अर्थे भेदः अस्ति वा?
अहं चिन्तयामि ब्रह्मः इति परमात्मा अस्ति, अपि ब्रह्मः इति प्रजापतिः अस्ति इति.
ओके,
देवता पुंलिङ्गे पुंलिङ्गे अस्ति चेत् प्रजापतिः ब्रह्म इति देवतारूपेण. ब्रह्मन् इत्युक्ते आत्मन् एव इति मन्ये भगिनि.
ब्रह्मन् ब्रह्मन् इत्युक्ते सृष्टि चे मूलकारणः अस्ति.
द्वे अपि प्रातिपदिकरूपं तु समान एव, ब्रह्मन् एव.
अस्तु इति वा? अस्तु
न भगिनि, शोभा भगिनि,
अहं ब्रह्मन् इत्यस्य ब्रह्म एव पश्यामि अधुना. ब्रह्म इति शब्दकल्पद्रुमे दृष्टवती भगिनि, तत्र प्रातिपदिकं न दत्तं.
महोदय, नपुंसकलिङ्गे अपि अस्ति, अकारान्त पुंलिङ्गे अपि अस्ति.
सत्यं भगिनि.
महोदय, अहं ब्रह्मास्मि इति अस्ति खलु, अहं ब्रह्मास्मि, अत्र ब्रह्म इति अहम् आत्मा अस्मि इति वा?
अर्थः आत्मा इति एव अस्ति भगिनि. अतः तत्र प्रायशः तत्र यत् ब्रह्म इति आत्मं सूचयति तदेव तत्र अपि अस्ति भगिनि, तत्र अहं ब्रह्मास्मि इति वाक्ये.
इत्युक्ते अत्र नपुंसकलिङ्गं रूपं,
हा प्रायशः रूपम्. अस्तु तर्हि तत्र वदतु महोदय.
अत्र केजि 192 मध्ये पतितः स्वागतं स्वगतं कथम् एव वदति एषः. एकवारं स्वगतम् इत्युक्ते एकवारं वदति वा?
स्वगतं स्वगतम् इत्युक्ते तस्य मनसि महोदय, स्वयमेव तस्य मनसि चिन्तनं करोति स्वगतं मनसि. तत्र गत्वा मनसः स्थानं गत्वा इत्युक्ते तत्र स्वयमेव चिन्तनं करोति, बहिः न वदति.
अस्तु,
तत्र केवलं चिन्तनं करोति.
परन्तु अत्र गुरुः अत्र स्वागतम् अस्ति
तत्र प्रायः मुद्रणदोषः अस्ति महोदय तत्र स्वगतमेव
महोदय स्वगत इत्युक्ते बिलाङ्ग् स्पोकन् टु वन् सेल्
स्वागतं स्वागतं
बिलाङ्गिङ्ग् टु वन् सेल्
स्वागतम् अस्तु
स्वागतं टाकिङ्ग् टु वन् सेल्फ् इति स्वागतम् इति यत् अस्ति तत्र मुद्रणदोषः अस्ति प्रायः महोदय स्वागतम् इति एव अस्ति इति मन्ये तत्र स्वागतम् इति अन्यत् पदमपि अस्ति किन्तु अत्र तादृशार्थः नास्ति केवलं मुद्रणदोषः अत्र
अष्टाध्यायी मध्ये महोदय ब्रह्मन् इति शब्दस्य द्वे रूपे दत्तमस्ति दत्तं स्तः नकारान्त नपुंसकलिङ्गे अपि च नकारान्त पुल्लिङ्गे यथा भगिनी उक्तवती शोभा भगिनी that way only brahma and brahma I have given the link in the chat madhye chat madhye dattam asti
preshitavati astu
preshitavati
atra shlokah asti guru brahma guru vishnu tatra api asti guru brahma tatra brahma param brahma idi ante asti param brahma tad binnam ब्रह्मा तत्र द्वयम् अस्ति फस्ट् वन् इस् ब्रह्मा अण्ड् सेकेण्ड् वन् इस् अनदर् वन्
ओके
गुरुब्रह्मा परं ब्रह्मा तस्मै श्री गुरवे नमः इति
प्रायशः भगिनि सत्यं तत्र प्रथम ब्रह्म अस्ति तत्र यः सृष्टिकर्ता अस्ति तस्य विषये अपि अन्तिम परब्रह्म
गुरुः विष्णु गुरुः देवः
सत्यं भगिनि गुरुब्रह्म देवो महेश्वरः गुरुसाक्षात् परब्रह्म तत्र परब्रह्म इति द्वितीयरूपं समीचीनमस्ति भगिनि धन्यवादः समीचीनं तत्र भगिनी यत् लिङ्क् प्रेषितवती तत्र नदी पदम् आगच्छति भगिनि
नो यु हेव् टु क्लिक् महोदय
नदी आगच्छति वा
no no you have to keep on clicking then you will find mahoday
oh
error mark asti na mahoday tatra
aha kintu tatra astu
oh anveshanam kurmaha mahoday
dhanyavad
brahma vishe
अस्तु भगिनि समीचीनमेव
वयं सर्वे आत्मनः अस्ति
अस्तु तर्हि अतः तत्र किं कुर्मः तत्र एकः निमेषः एव अस्ति किन्तु तत्र चिन्तनं किम् अस्ति तत्र पुनः एकवारं तस्य अग्रिमवर्गे तत्र गीतासोपाने प्रथमभागे किं किं चर्चितवन्तः इति एकवारं तत्र दृष्ट्वा तत्र किमस्ति एतत् पुनरावलोकनम् इति किमपि अस्ति पदं तत् कुर्मः अग्रिमे वर्गे तस्य अनन्तरं तत्र द्वितीयभागस्य उद्घाटनं कुर्मः अथवा नो चेत् अग्रिमे वर्गे एकां कथां पठामः तदनन्तरं तत्र द्वितीयभागस्य उद्घाटनं समीचीनं वा इदानीं प्रथमभागः समाप्तं भगिनि इदानीं द्वितीयभागः तत् आन्लैन् मध्ये न लभ्यते
के के विषयाः सन्ति पुस्तके
यत् यत् भवति तत्र रविवासरवर्गे आगच्छति तदेव अस्ति तत्र करपत्रं तत्र
अहम् अत्र सन्धि अस्ति वा सन्धि वा
न न सन्धि नास्ति तत्र हलन्तपदानां विभक्तिरूपाणि सन्ति तदनन्तरं तत्र किम् अस्ति तत्र विशेषणविशेषभावः अपि कर्मणि प्रयोगः भावे प्रयोगः तत्सर्वम् आगच्छति तदनन्तरं तत्र गीताप्रवेशः प्रथमभागः भगिनि अत्र व्याकरणवर्गे तत् सन्धिसमासात् तत् तदपि कुर्वन्ति किन्तु गीतासोपनमार्गे यदि गच्छामः तर्हि तत्र गीतासोपने द्वितीय भागे तत्र हलन्तपदानां विभक्तिरूपाणि अपि लिङ्गलकारः कर्मणि प्रयोगः भावे प्रयोगः शत्रन्तप्रयोगः शत्रन्तप्रत्ययः शानच् प्रत्ययः इति तत्सर्वं भवति. तदनन्तरं गीताप्रवेशः प्रथमभागे तत्र सन्धिसमासः सर्वम् आयाति.
गीताप्रवेशः अपि पाठयति वा महोदय?
हा, एतावत् न पाठितवान् किन्तु यदि 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 कर्तुं शक्नुमः तत्र मम अभिरुचिः अस्ति किन्तु एतावत् न पाठितवान् किन्तु अहं बहु वर्षपूर्वं तत्र अहं स्वरूपमहोदयस्य वर्गं गतवान् तत्र अतः तत्र सः स्वरूपमहोदय आरम्भेन सर्वं पाठितवान् अतः तत्र किम् अभ्यासपुस्तकं विभक्तिवल्लरी गीतासोपनं प्रथमभागः गीतासोपनं द्वितीयभागः तदनन्तरं गीताप्रवेशः हा तदनन्तरं न्यायवर्गः इति यत् इदानीमपि प्रवर्तमानः अस्ति तत् ततः एतत् सर्वं स्वरूपमहोदयेन प्राप्तम्. अतः अतः यदि एतत् गीताप्रवेशः अपि कर्तुं तत्र अवकाशः अस्ति चेत् कुर्मः.
करोतु महोदय.
अस्तु
महोदय.
हा हा अभिनन्दनानि सर्वेषाम् अभिनन्दनानि. अभिनन्दनानि. एकं पुस्तकं पूर्णतया पठितवन्तः सः. अभिनन्दनानि. अस्तु अस्तु तर्हि तत्र
अत्र अभ्यासे महोदय मत मन्दमतीनाम् इति एकः प्रश्नः अस्ति. तत्र प्रथमा विभक्ति अपि च तस्य तृतीया विभक्ति बहुवचनं वयं
दृष्टवन्तः. अस्तु अभ्यासः अपि अस्ति खलु अहं स्मृतवान्. अस्तु अस्तु अतः अग्रिमवर्गे अभ्यासं कुर्मः तदनन्तरं किञ्चित् पुनरावलोकनं कुर्मः प्रायश्चिकां कथमपि पठामः तदनन्तरं द्वितीयपाठस्य उद्घाटनं. अस्तु तर्हि तत्र मधुसूदन महोदय तत्र भवान् अन्ते तत्र शान्तिमन्त्ररूपेण वदति वा महोदय? अस्तु वदतु महोदय.
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्यवे. ॐ शान्ति शान्ति शान्तिः. धन्यवादः.
धन्यवादः सर्वेभ्यो
नमः.
धन्यवादः
महोदय.
शुभरात्रि महोदय.
शुभरात्रि. नमस्कारः.
धन्यवादः.